ओम आकाशवाणी संप्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी भुवनेश्वरे आयोजितस्य अखिल भारतीय रक्षि महानिदेशक महानिरीक्षक सम्मेलनस्य अन्तिमे दिवसे देशस्य विभिन्नैः राज्यैः केन्द्रशासित प्रदेशैः च सम्बद्धेषु महत्वपूर्णेषु सुरक्षा विषयेषु चर्चां करोति। तेलंगाना देशस्य मुलुगु जनपदे अद्य प्रातः काले सैन्यबलैः सह संघर्षे सप्त वामपन्थिनः आतंकवादिनः मारिताः। नगालैण्डम् अद्य द्विषष्टितमं राज्यदिवसम् आचरति। अस्मिन् अवसरे राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च राज्यस्य जनेभ्यः शुभकामनां प्रदत्तवन्तः। अद्य एड्स रोगस्य विषये जनान् जागरूकं कर्तुं विश्व एड्स दिवसः आचर्यते। अपि च सैयद मोदी अन्ताराष्ट्रिय बैडमिंटन स्पर्धा मालिकायां महिलैकल वर्गीयं द्वन्द्वं भारतीय बैडमिंटन तारिकया पीवी सिन्धुना जितम्। वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी भुवनेश्वरे आयोजितस्य अखिल भारतीय रक्षि महानिदेशक महानिरीक्षक सम्मेलनस्य अन्तिमे दिवसे देशस्य विभिन्नैः राज्यैः केन्द्रशासित प्रदेशैः च सम्बद्धेषु महत्वपूर्णेषु सुरक्षा विषयेषु चर्चां करोति। ध्यानास्पदमस्ति यत् अन्तर्जालीय पराधानां रोधनं तटीय सुरक्षां माओवादोग्रवादस्य उन्मूलनं च अभिलक्ष्य रणनीति निर्धारणाय एतत् सम्मेलनम् आयोजितम्। अत्र कृत्रिम बुद्धिमत्तया ड्रोन सदृश प्राविधिकिभिश्च उत्पन्नानि समाह्वानानि सम्मुखीकर्तुम् आतंकवादरोधि रणनीतिं च निर्मातुं रक्षिबलस्य शीर्षाधिकारिभिः विभिन्नैः सुरक्षाभिकरणैः च सह विचारणा भवति। एतदतिरिच्य आधारभूत संरचना रक्षिसम्बद्ध विभिन्न परिचालन मादक पदार्थादि विषयेषु अपि चर्चन्ते। गतवासरे वामपन्थी नक्सलवाद समस्याम् अभिलक्ष्य परिचर्चा जाता। सम्मेलने केन्द्रीय गृहमन्त्री अमित शाह गृहसचिव गोविन्द मोहन राष्ट्रीय सुरक्षा परामर्शद अजीत डोभाल च उपस्थिता विद्यन्ते। नागालैण्डम् अद्य द्विषष्टितमं राज्यदिवसम् आचरति। त्रिषष्ट्यधिकोनविंशतितमे वर्षे अस्मिन् दिने नागालैण्डम् भारतस्य षोडशतमं राज्यं जातम्। अद्य नागालैण्डस्य कोहिमा नगरे राज्यस्तरीयानां कार्यक्रमाणाम् आयोजनं सञ्जातम् यस्मिन् मुख्यमन्त्री नेफ्यू रिव सभां सम्बोधितवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा राज्ये शासनस्य शिक्षाया च उन्नयनार्थम् अनेकाः उपक्रमाः प्रारब्धाः। राज्यदिवसं समेत्य हॉर्न बिल महोत्सवस्य पञ्चविंशतितमं संस्करणम् अद्य सायं किसामा नगरस्य नागा हेरिटेज विलेज इति स्थाने आरब्धम् भविष्यति। अस्मिन् अवसरे राष्ट्रपति उपराष्ट्रपति प्रधानमन्त्री च राज्यस्य जनेभ्यः शुभकामनां प्रदत्तवन्तः। राष्ट्रपति द्रौपदी मुर्मू अन्तर्जालीय पटल सन्देश माध्यमेन प्रोक्तवती यत् वनस्पतिभिः जन्तुभिः इत्यादिभिः च समृद्धं सम्पन्नं सुन्दरं नागालैण्ड राज्यं वीरभूमिः अपि अस्ति। सः राज्यस्य जनेभ्यः शान्तिपूर्णं समृद्धं प्रगतिशीलं च भविष्यम् अभिलक्ष्य शुभकामनां प्रदत्तवती। उपराष्ट्रपतिः जगदीप धनखड़ नागालैण्डस्य प्राकृतिक वैभवं जीवन्त संस्कृतिं च प्रकृत्या सह गहन सौहार्दं यथार्थतया प्रकाशितवान्। प्रधानमन्त्री नरेन्द्र मोदी नागालैण्डस्य समृद्ध संस्कृतेः राज्यस्य जनानाम् अद्भुत स्वभावस्य च कृते प्रशंसां प्रकटितवान्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। तेलंगाना प्रदेशस्य मुलुगु जनपदे अद्य प्रातः काले सैन्यबलैः सह संघर्षे सप्त वामपन्थिनः आतंकवादिनः मारिताः। एतेषु बीजापुरतः सम्बद्ध गुल्म प्रमुख उपनामकः पपन्ना अन्ये द्वे सदस्ये च स्तः। संघर्षात् पूर्वम् एते उग्रवादिनः सैन्यबलस्य सूचकत्वं प्रतिपाद्य आदिवासीद्वयं मारितौ। अद्य प्रातः काले अन्वेषणावधौ नक्सल विरोधि आरक्षकैः एतुरंग राम क्षेत्रे आतंकवादिनः गमनागमनं दृष्ट्वा गोलिकावर्षणम् आरब्धम्। एके सप्तचत्वारिंशत् भुशुण्डिकाद्वयम् अपि आरक्षकैः प्राप्तः। राजस्थान मन्त्रिमण्डलेन बलात् धर्मपरिवर्तनं रोद्धुं विधेयक प्रागरूपं स्वीकृतम्। आगामिनि विधानसभा सत्रे चतुर्विंशत्यधिक द्विसहस्रतम वर्षीयं राजस्थान विद्यासंगत धर्म परिवर्तन निषेध विधेयकं प्रस्तोष्यते। अद्य सीमा सुरक्षा बल बीएसएफ इत्यस्य स्थापना दिवसावसरे प्रधानमंत्री नरेन्द्र मोदी शुभकामनां प्रदत्तवान्। सः अवदत् यत् देशस्य सुरक्षा क्षेत्रे बीएसएफ इत्यस्य महत्वपूर्णं योगदानम् अस्ति। एतद्बलं साहसस्य, समर्पणस्य, असामान्य सेवायाः च प्रतीकम् अस्ति। श्रीमोदी राष्ट्रस्य सुरक्षार्थं बीएसएफ इत्यस्य समवधानतायाः, साहसस्य च प्रशंसाम् अकरोत्। अद्य एड्स रोगस्य विषये जनान् जागरूकान् कर्तुं विश्व एड्स दिवस आचर्यते। अस्य विषय अस्ति टेक द राइट्स पाथ इति, अर्थात अधिकाराणां मार्गं प्रति गच्छ। अद्य मध्यप्रदेशस्य इंदौर नगरे विश्व एड्स दिवसस्य अवसरे केन्द्रीय स्वास्थ्य मंत्री जगत प्रकाश नड्डा एचआईवी इत्यनेन संक्रमणेन ग्रस्तान् जनान् प्रति संवेदनशीलतां व्यवहर्तुम् अथ च तेषां मानवाधिकारान् संरक्षयितुं जनान् अध्यर्थितवान्।
यह दिवस अपने आप को एचआईवी से प्रोटेक्ट करने के लिए भी कमिटमेंट है। जो एचआईवी के साथ जी रहे हैं उनको हम सामान्य जीवन में अपने साथी के रूप में देखें। आज का थीम है टेकिंग द राइट्स पाथ, यानी लोगों को उनके अधिकारों के साथ उस रास्ते पर ले जाना है जो मुख्य धारा में उनको शामिल कर सके, इसको भी ध्यान में रखने का दिवस है।
श्री नड्डा अवदत् यत् सप्तदशाधिक द्विसहस्रतम वर्षस्य एचआईवी संरक्षण विधि माध्यमेन संक्रमितानां विरुद्धं किमपि भेदभावं निवारयितुं केन्द्र सर्वकारेण कार्यं विहितमस्ति। सः अवदत् यत् प्रधानमंत्री नरेन्द्र मोदी इत्यस्य नेतृत्वे सर्वकारेण परीक्षणस्य, चिकित्सायाश्च नीतिः कार्यान्विता जाता। श्री नड्डा इत्यनेन उक्तं यत् भारतम् अस्य रोगस्य प्रभाविनम् औषधं निर्मातुं सफलं जातम्। त्रिंशदधिक द्विसहस्रतमं यावत् भारतम् अस्मात् रोगात् मुक्तं भविष्यति इति स्वास्थ्य मंत्री आशां प्रकटितवान्। सैयद मोदी अन्ताराष्ट्रिय बैडमिंटन स्पर्धा मालिकायां महिलेकल वर्गीयं द्वन्द्वं भारतीय बैडमिंटन तारिकया पीवी सिन्धुना जितम्। लखनऊ नगरे अद्य महिलानां एकल वर्गीय स्पर्धा श्रृंखलायाः निर्णायक चक्रे पीवी सिन्धु चीन देशीयां प्रतिद्वन्दिनीं वु लुओ यु इत्येताम् एकविंशतिः चतुर्दश, एकविंशतिः षोडश इत्येतैः अंकान्तरालैः पराजितवती। अपरतः अद्यैव पुरुषाणाम् एकलवर्गे निर्णायकचक्रे भारतस्य लक्ष्यसेनः सिंगापुरदेशीयं जिया हेंग जेसन तेहम एकविंशतिः षट्, एकविंशतिः सप्त इत्येतैः अंकान्तरालैः पराजित्य विजयम् अध्यगच्छत्। इतः पूर्वं महिलानां युगलवर्गीयं द्वन्द्वं भारतस्य त्रिशा जाली, गायत्री गोपी चंदः च जितवत्यौ। ताभ्यां चीन देशीय क्रीडिके बाउली जिंग लीकियां च पराजिते। तत्रैव पुरुष युगल वर्गे भारतस्य पृथ्वी कृष्णमूर्ति राय, के साई प्रतीकः च पराजितौ। मिश्रित युगल वर्गे अपि तनीषा क्रेस्टो ध्रुव कपिलयोः युगलं थाईलैंडस्य डेचापूल पुवारानुक्रोः सुपिसारा पेवसं प्राणयोः युगलेन पराजितम्। मुख्यवार्ता पुनरेकवारम्। प्रधानमंत्री नरेन्द्र मोदी भुवनेश्वरे आयोजितस्य अखिल भारतीय रक्षी महानिदेशक महानिरीक्षक सम्मेलनस्य अन्तिमे दिवसे देशस्य विभिन्नैः राज्यैः केन्द्रशासित प्रदेशैः च सम्बद्धेषु महत्वपूर्णेषु सुरक्षा विषयेषु चर्चां करोति। तेलंगाना देशस्य मनुगु जनपदे अद्य प्रातःकाले सैन्यबलैः सह संघर्षे सप्त वामपन्थिनः आतंकवादिनः मारिताः। नागालैंडम् अद्य द्विषष्टितमं राज्यदिवसम् आचरति। अस्मिन्नवसरे राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमंत्री च राज्यस्य जनेभ्यः शुभकामनां प्रदत्तवन्तः। अद्य एड्स रोगस्य विषये जनान् जागरूकान् कर्तुं विश्व एड्स दिवसः आचर्यते। अपि च सैयद मोदी अन्ताराष्ट्रिय बैडमिंटन स्पर्धा मालिकायां महिलैकल वर्गीयं द्वन्द्वं भारतीय बैडमिंटन तारिकया पीवी सिन्धुना जितम् इति वार्ताः।